इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य अवशिष्ट चरणानां कृते प्रचाराभियानं सजवं प्रवर्तते। विभिन्न राजनैतिक दलानां नेतारः स्वपक्षे समर्थनाय राज्यानां यात्रां नैरन्तर्येण कुर्वन्ति। विभिन्न राजनैतिक दलानां शीर्ष नेतारः उत्तरप्रदेशे अग्रिम चरणस्य निर्वाचनाय मतदातृन् आक्रष्टुं सर्वविध प्रयासान् विदधति। प्रधानमन्त्री तथा भाजपायाः वरिष्ठ नेता नरेन्द्र मोदी ह्यः अवदत् यत् नागरिकता संशोधनाधिनियमः मोदी की गारंटी इत्यस्य प्रमुखोदाहरणम् अस्ति। तेन स्पष्टं जायते यत् भाजपा स्वप्रतिज्ञां पूरयति। सः अवदत् यत् सीएए इत्यस्य निरसनं न भविष्यति। उत्तरप्रदेशस्य जौनपुरमण्डले निर्वाचनसभां सम्बोधयन् सः अवदत् यत् एतत् लोकसभानिर्वाचनं देशस्य कृते एतादृशं नेतारं चिनोतुम् अवसरः अस्ति ह्यः सशक्तं सर्वकारं चालयितुं शक्नोति येन विश्वं भारतस्य सामर्थ्यस्य विषये ज्ञानं भवेत्। सः अवदत् पूर्वं विकासः बृहन्नगरेषु एव सीमितः आसीत् परन्तु अधुना अयोध्या काशी इत्यादिषु स्थानेषु अपि बहुविकासः अभवत्। राज्यस्य आजमगढ़ भदोही प्रतापगढ़ मण्डलेषु राजनीतिकसभाम् अपि सम्बोधितवान्। अपरपक्षे कांग्रेस दलस्य महासचिवः प्रियंका गांधी वाड्रा रायबरेली नगरे प्रचारं कृतवती। भाजपायाः उपरि आक्षेपं कुर्वन्ती सा अवदत् यत् भगवा दलं अराजकतां संवर्धयति। एकचत्वारिंशत् सामान्यतया प्रयुक्तानां औषधीनां मधुमेह हृदय यकृत रोगाणां चिकित्सायाम् उपयुज्यमानानां षट् सूत्राणां च मूल्यं सर्वकारेण न्यूनीकृतमस्ति। आवश्यकौषधीनां व्ययः सामान्यजनानां कृते न्यूनम् एव भवेत् इति राष्ट्रियौषध मूल्य निर्धारण प्राधिकरणस्य सभायाम् एषः निर्णयः स्वीकृतः। फार्मा उद्यमेभ्यः निर्देशः प्रदत्तः यत् ते विभिन्नानाम् औषधीनां न्यूनीकृत मूल्यानां सूचनां तत्क्षणं प्रभावीरूपेण विक्रेतृभ्यः संग्रहकर्तृभ्यः च प्रसारयन्तु। नवीकरणीय ऊर्जा सचिवः भूपेन्द्र सिंह भल्लाः वैश्विक हाइड्रोजन अर्थव्यवस्थायां महत्वपूर्णां भूमिकां निर्व्योढुं देशस्य दृढनिश्चयं बोधितवान्। नीदरलैंड देशस्य रॉटरडैम नगरे चतुर्विंशत्यधिक द्विसहस्रतमं वैश्विक हाइड्रोजन शिखर सम्मेलनं संबोधयन् सह प्रतिनिधिभ्यः हरित हाइड्रोजनेत्यस्य उत्पादनस्य कस्यापि परिणामस्य पूर्तये भारतस्य क्षमतायाः आश्वासनं प्रदत्तवान्। सचिवेन उक्तं यत् देशस्य स्थायि ऊर्जा स्रोतांसि प्रति संक्रमणस्य प्रतिबद्धतायाः अनुरूपं त्रयोविंशत्यधिक द्विसहस्रतमवर्ष पर्यन्तं जीवाश्म ईंधन स्रोताभ्यां स्थापिता विद्युत् क्षमता 50% वर्धते इति अनुमानितमस्ति। भारतीय ऋतु विज्ञान विभागेन उत्तर पश्चिमीय भारते बिहारे च आगामि पञ्च दिवसेषु तापतरंगस्य स्थितेः संभावना प्रकटिता। विभागेन उक्तं यत् अस्य मासस्य 20 दिनांकपर्यन्तं पश्चिम राजस्थाने पंजाबे हरियाणायां दिल्ल्यां केषुचित् भागेषु च तीव्र तापतरंगस्य संभावना वर्तते। युवविषयक क्रीडामन्त्रालयस्य च मिशन ओलम्पिक सेल एमओसी इत्यनेन स्क्वैश क्रीडकान् अनाहत सिंहम अभय सिंहम बेलावन सेंथिल कुमारम च टार्गेट ओलम्पिक पोडियम योजनायाः टॉप्स विकास समूहे संयोजितम् इति वार्ताः।